इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका साधना शर्मा। सर्वादौ नववर्षस्य शुभकामनाः श्रोतृभ्यः। इदानीम् वार्ताः। प्रधानमन्त्रिणा नरेन्द्र मोदिना ह्यः नवदिल्ल्यां प्रो एक्टिव गवर्नेंस तथा समयोचित इम्प्लीमेंटेशन कृते प्रगत्याः बहुविध मञ्चस्य 50तम सभायाः अध्यक्षता कृता। सभायां श्री मोदी मार्ग रेल मार्ग विद्युत जल संसाधन अंगारक इत्यादिषु क्षेत्रेषु पञ्च महत्वपूर्णानां मूल संरचना परियोजनानां समीक्षां विहितवान्। एताः प्रकल्पाः पञ्च राज्येषु विस्तृताः सन्ति। तेषां संचित व्ययः 40,000 कोटि रूप्यकात् अपि अधिकः अस्ति। प्रधानमन्त्रिणा नरेन्द्र मोदिना उक्तं यत् केन्द्रीय मन्त्रिमण्डलेन ओडिशा राज्ये 26,300तमस्य राष्ट्रिय राजमार्गस्य विस्तारणस्य सुदृढीकरणस्य च अनुमोदनं महत्वपूर्णः प्रकल्पः अस्ति। सामाजिक अन्तर्जालीये सन्देशे श्रीमोदी अवदत् यत् अनया यात्रया गतिः वर्धिता। गजपति रायगढ़ कोरापुट इत्येतेषु सम्पर्कः च संवर्धितः भविष्यति। महाराष्ट्र राज्ये 6 प्रभागीयस्य नासिक सोलापुर अक्कलकोट मार्गस्य निर्माणाय आर्थिक कार्य मन्त्रिणां समितिम् अनुमतिं दत्तवती। पादोन 400 किलोमीटर परिमितः राजमार्गः प्रायः 15,000 कोटि रूप्यकाणां व्ययेन निर्मितः भविष्यति। नवदेहल्याम् अद्यतनस्य मन्त्रिमण्डलस्य निर्णयानां विषये प्रसार माध्यमान् सम्बोधयन् सूचना प्रसारण मन्त्री अश्विनी वैष्णवः अवदत् यत् नासिक सोलापुर अक्कलकोट मार्ग प्रकल्पः नासिक अहिल्या नगर सोलापुर इत्यादीनां महत्वपूर्णानां क्षेत्रीय नगराणां कृते कुर्नूल नगरेण सह सम्पर्कं कल्पयिष्यते। प्रधानमन्त्री गतशक्ति राष्ट्रिय बृहत् योजनायाः सिद्धान्तार्गतं एकीकृत परिवहन सौकर्याभिवृद्धये एतत् महत्वपूर्णं सोपानम् अस्ति इति।
आज नासिक से सोलापुर का कॉरिडोर अप्रूव हुआ है। ये कॉरिडोर कई बड़े शहरों को और कई बड़े इंडस्ट्रियल सेंटर्स को जोड़ेगा। 2 साल में इसका कंस्ट्रक्शन पूरा होगा। 374 किलोमीटर का प्रोजेक्ट है और 19,142 करोड़ रुपीस का इसमें इन्वेस्टमेंट होगा। ये प्रोजेक्ट नासिक और सोलापुर के बीच के डिस्टेंस को टाइम को सिग्निफिकेंटली रिड्यूस करेगा। बाय 14% डिस्टेंस रिड्यूस होगी और टाइम 45% रिड्यूस होगी बिटवीन चेन्नई एंड सूरत।
केंद्रीय मंत्रिमंडलेन ओडिशा राज्ये राजमार्ग संख्या 26,300 इति इत्यस्य परिष्काराय अपि आर्थिकानुमतिः प्रदत्ता। श्री वैष्णवः अवदत् अस्य राजमार्गस्य उन्नयनेन गजपति रायगढ़ कोरापुट इत्येतानि महत्वाधायिनि जनजातीय मण्डलानि महन् लाभं प्राप्स्यन्ति। केन्द्रीय मन्त्रिमण्डलेन गतदिने 6 पंक्तियुताय नासिक सोलापुर मार्गाय अनुमतिः प्रदत्ता। नवदिल्ल्यां मन्त्रिमण्डलस्य आर्थिक समितेः उपवेशनस्य अनन्तरं सूचना प्रसारण मन्त्री अश्विनी वैष्णवः इदम् अवोचत्। रक्षा अनुसन्धान विकास संघटनम् इत्यनेन ओडिशा तटस्य समीपे एकेनैव प्रक्षेपेण द्रुतगत्या द्वयोः प्रलय प्रक्षेपास्त्रयोः सातत्य प्रक्षेपणं सफलतया कृतम्। अयोध्यायाः श्रीरामललायाः प्रतिष्ठा धार्मिक आध्यात्मिक पर्यटनस्य केन्द्रं जातम्। भगवतः श्रीरामस्य महिमा न केवलं भारते अपि तु सम्पूर्णेऽपि विश्वे विद्योतते। नववर्षस्य स्वागतार्थं क्रीडनकं विस्फोटकादिभिः च आनन्दं लभन्ते जनाः। राष्ट्रपतिना अस्य जनेभ्यः शुभकामनाः प्रदत्ताः। इति वार्ताः।